एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली कृषकेभ्य यथासमयं रासायनिक मलम प्रदातुं निर्दिशति। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये यः कृषि क्षेत्रस्य विद्यमानावस्थायाः समाहयानां सुधारस्य विषयेष् कृषि पशुपक्षी मन्त्रिणा रामनाथ अधिकारिणा अन्यै सम्बद्ध पदाधिकारिभिश्च सह विहिते विमर्शने प्रधानमन्त्री ओली आगामिने मार्गशीर्ष मासाय कति मलम आवश्यकं भविष्यति तद् आकलय्य अधुनातः एव क्रयण प्रक्रियां प्रारब्धुं निरदिशत्। प्रधानमन्त्री ओली कृषकेभ्य आय सर्जन प्रकृतिक कृषेः एव करणाय वातावरणं स्रष्टुम् उपयुक्त भूमौ एव सामूहिक कृषि प्रणालीं प्रारब्धुं च परामर्शनं ददत्। स्वदेशे अनुत्पादकानि खाद्यवस्तूनि समय एव कृत्वा देशं प्रवेशयितुं निरदिशत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह नेपाल भ्रमणे आगतेन संयुक्त राज्य अमेरिका देशस्य व्यवस्थापन स्रोत सम्बद्धेन उपविदेश मन्त्रिणा रिचार्ड आर वर्मा इत्यनेन शिष्टाचार मेलवार्ता विहितास्ति। सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्यः सम्भूते मेलने अनयोर्मध्ये पारस्परिक सम्बन्धस्य विषये विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। तदवसरे नेपालस्य आर्थिक सामाजिक विकासाय पञ्चाशदुत्तरैकोनविंशतितम ख्रैस्ताब्दात् अमेरिका देशीय सर्वकारेण विहितस्य सहयोगस्य कृते आभारं प्रकटयता प्रधानमन्त्रिणा ओलिना नेपालस्य विकासाय विविधेष् क्षेत्रेष् सहयोग अपेक्षित आसीत्। तदवसरे उपविदेश मन्त्री वर्मा द्वयोः देशयोः सप्तसप्ततेः वर्षाणां सम्बन्धस्य विषयं स्मरन् नेपालस्य विकासाय सहयात्री भवनम् अमेरिका देशस्य कृते सुखाव विषयो वर्तते इत्यभाषत। एवमेव प्रधानमन्त्रिणा ओलिना सह नेपालस्य कृते जर्मनी देशस्य राजदूतेन डाक्टर थोमस पिंज इत्यनेन शिष्टाचार मेलवार्ता विहितास्ति। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे सम्भूते मेलने द्वयोः देशयोः कूटनीतिकार्थिक सम्बन्धस्य अभिरुचेश्च विषयेष् विमृष्टं वर्तते। सोलुखुम्बु जनपदस्य पासाङलामु ग्रामपालिकायाः पञ्चम ओडा क्षेत्रस्य थामीवर्तिन्यां भोटे कौशिकी नद्यां सहसा जलप्रवाहस्य वर्धनात् तटवर्तिष् चतुर्दशष् गृहेष् पूर्णतः क्षतिः प्राप्ता वर्तते। ह्यः भोटे कौशिकी नद्याः जलप्रवाहस्य वर्धनात् थामे क्षेत्रस्य एकस्मिन् विद्यालये एकस्मिन् औषधालये सप्तष् गृहेष् पञ्चष् अतिथिसदनेष् च पूर्णतः क्षतिः प्राप्तास्ति इति सोलुखुम्बु जनपदस्य प्रहरी निरीक्षक लक्ष्मणगिरी असूचयत्। सम्प्रति उपरितन क्षेत्रे जलप्रवाहस्य न्यूनीभवनानन्तरम् अवरस्तर क्षेत्रे जलप्रवाहस्य शरणात् तटीय क्षेत्रेष् निवसन्तः जनाः सावधानताम् अवलम्बितुं संसूचिताः सन्तीति असौ अज्ञापयत्। सर्वकारेण काभा महिला हस्त कन्दुक प्रतियोगितायां नेपालस्य पक्षतः सहभागिभ्यः क्रीडकेभ्यः प्रतिजनं लक्ष्यत्रयं रूप्यकाणि प्रदाय सम्मानार्थं निर्णीतमस्ति। गत बृहस्पतिवासरस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुं संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता स पृथ्वी सुब्बा गुरूङ पोखरावर्तिनः राजस्व न्यायाधिकरणस्य विधि सदस्य पदे अध्यक्ष पदे च पोखरावर्तिनः उच्च न्यायालयस्य न्यायाधीशं सुदर्शन पाण्डे विदं नियोक्तुं निर्णीतं वर्तते। एवमेव सर्वकारेण विश्वकोश समूहस्य अन्तर्राष्ट्रिय विकास संस्थातः पञ्चाशदुत्तर शत मिलियन मितानां अमेरिका देशीय डलर मुद्राणां सौविध्यपूर्णस्य ऋणस्य स्वीकरणेन सम्बद्धायै संविधायै कार्यक्रमाय स अन्तिमं रूपं प्रदातुं अर्थमन्त्रालयस्य सहसचिवस्य संयोजकत्वे वार्ता समूहं संघटयितुं निर्णीतमस्ति इति मन्त्री गुरूङ असूचयत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ भाषते नवीनानां विधीनां निर्माणेन सहैव तेषां क्रियान्वयनाय सम्भावितानां जटिलतानां विषयेऽपि ध्यानं देयम्। प्रतिनिधिसभान्तर्गतायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः ह्यस्तनोपवेशे मन्त्री गुरूङ विधीनां निर्माणं सर्वकारस्य नियन्त्रणस्य अपेक्षयापि सौविध्यपूर्ण वातावरणस्य सर्जनार्थं कर्तव्यम् इति अवोचत्। समितौ विचाराधीनस्य सार्वजनिक सेवा प्रसारण विधेयकस्य विवादितानां विवादितान् विषयान् निष्कर्षे नेतुम उपसमितेः प्रतिवेदनमाधृत्य विहिते विमर्शने मन्त्री गुरुङ विधेः क्रियान्वयनस्य दायित्वं सर्वकारस्य अस्ति, त्यतः सर्वकारस्य क्रियान्वयन क्षमतां विचारैव विधिनां निर्माणं करणीयम् इति प्रावोचत्। उपवेश्य संचार सूचना प्रविधि मन्त्रालयस्य सचिव राधिकार्याल रेडियो नेपालम नेपाल टेलिभिजनञ्च एकीकृत्य नूतन सार्वजनिक प्रसारण संस्थाया निर्माणाय एतयोः संस्थयोः कार्यरतानां कर्मचारिणां व्यवस्थापनस्य राज्यस्य आर्थिक दायित्वस्य च विषयेष् व्यापकेन विमर्शव्यमिति अवदत्। उपवेशे उपसमितेः प्रतिवेदनं प्रस्तुवन् संयोजकः छविलाल विश्वकर्मा विज्ञैः सम्बद्धैश्च सह विमृश्य उपसमित्या विवादितेषु विषयेष् सहमत्यर्थं प्रयासो विधीयते इति अवोचत्। उपवेशे सांसदः प्रस्तावितस्य विधेयकस्य अनुसारेण निर्मिता सार्वजनिक सेवा प्रसारण संस्था स्वायत्ता प्रतिस्पर्धिनी उत्तरदायिनी च भवतु इत्यत्र बलं प्रादुः। कर्णाली प्रदेशस्य हुम्ला जनपदे नेपाल दूर संचार प्राधिकरणस्य फाइबर टू द होम इति सेवा प्रारब्धा अस्ति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ श्रव्य दृश्य माध्यमेन सेवाया शुभारम्भं विदधान हुम्ला सहितेषु सप्तसप्तत्यां जनपदेष् फाइबर टू द होम सेवा प्राप्ता अस्तीति असूचयत्। मन्त्री गुरूङ हुम्ला जनपदे सेवाया प्रारम्भानन्तरमेव सर्वकारेण शतदिवसेष् कर्तुं निर्धारितानां कार्याणां मध्ये एकं कार्यं सम्पन्नमस्तीति अभाषत। संचार सूचना प्रविधि मन्त्रालयस्य सचिव नेपाल दूरसंचार प्राधिकरणस्य अध्यक्षस्य राधिका अर्याल देशस्य आर्थिक समृद्धिर्लक्ष्यं पूरयितुं आगामि दिनेष् प्रविधिं प्रयुज्य अग्रेसरणीयम् इत्यवोचत्। य एव भद्रकाली वर्तिनी राष्ट्रिय समाचार समितेः केन्द्रीय कार्यालय समितेः संचार संग्रहालयस्य उद्घाटनं विदधानः संचार मन्त्री गुरूङ सर्वकारेण देशं जनतां च प्रति पारदर्शितया उत्तरदायितया च कार्यकरणम् ईप्सितमस्तीति चर्चयन् तदनुरूपेणैव संचार माध्यमे भूमिका निर्वहणीया इति प्रावोचत्। कार्यक्रमे संचार सूचना प्रविधि मन्त्रालयस्य सचिव राधिका अर्याल वरिष्ठ पत्रकार रामकृष्ण रेग्मी राजेन्द्र दाहाल डाक्टर कुन्दन अर्याल राष्ट्रिय समाचार समितेः अध्यक्ष धर्मेन्द्र झा चेत्यतेः जना धारणा व्यक्तवन्त। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह कथयति जनतायाः अवस्थायाः परिवर्तनाय वर्तमान सर्वकारः संघटितोऽस्ति। कान्तिपुर सिटी महाविद्यालयेन ह्य काष्ठमण्डपे आयोजितां शैक्षिक प्रदर्शनीम् उद्घाटयन् मन्त्री सिंह देशे व्यवस्थायां परिवर्तितायां सत्यामपि जनतायाः अवस्था परिवर्तिता नास्तीति अवोचत्।